सर्वेभ्यः नमस्कारः। सिद्धपाणिनिकक्षायां भवतां स्वागतम्। पूर्वतनकक्षायां विभक्त्यादयः इत्यस्मिन् अध्याये कांश्चन शब्दान् वयं दृष्टवन्तः। अस्मिन् अध्याये इतोपि कांश्चन शब्दान् वयं पश्यामः। अत्र उदाहरणम् एवं दत्तमस्ति, वत्से बालाय अन्नं खादय इति। अयं दोषयुक्तः प्रयोगः। बालाय अन्नं खादय इति वाक्यम् अशुद्धम्। बालेन अन्नं खादय इति वक्तव्यम्। यतः वयं जानीमः एव णिच् प्रकरणे सूत्रमस्ति, प्रतिबुद्धि प्रत्यवसानार्थ इति सूत्रमस्ति। तेन सूत्रेण अण्यन्तकर्तुः यत् कर्मत्वं प्राप्तं तत् निषिद्धम्। कस्मिन् विषये निषेधः? अधातोः खाद् धातोः विषये च। अत्र खाद् धातुः स्वीकृतः, अतः तस्य कर्मत्वस्य निषेधः अस्ति। अतः बालम् अन्नं खादय इति न भवति, बालाय अन्नं खादय इत्यपि न भवति। बालात् इति चतुर्थी कुत्रापि दृष्टपूर्वा नास्ति, अतः बालेन इति तृतीया एव प्रयोक्तव्या। भवान् माम् एतं विषयं श्वः स्मारयतु कृपया इति अस्माभिः बहुधा प्रयुज्यते। माम् स्मारयतु इति प्रयोगः न दोषाय। यत्पूर्वम् अस्माभिः सूत्रं दृष्टं, गतिबुद्धि इति सूत्रम्, तेन सूत्रेण बुद्ध्यर्थकधातूनां प्रयोगे अण्यन्तकर्तुः कर्मसंज्ञा विहिता। कर्मसंज्ञा अस्ति इत्यतः द्वितीया विभक्तिः भवति। कौमुद्याम् एवं लिखितमस्ति, सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणम्, न तु तद्विशेषार्थानाम्। अतः स्मारयति, जिघ्रति इत्यादीना न भवति इति उक्तम्। अतः स्मारयति घ्रापयति वा देवदत्तेन इति तृतीया एव उक्ता। एवं कौमुदी वाक्यपठनसमनन्तरं स्मारयति इति प्रयोगे द्वितीया न भवति खलु इति सामान्यतः भाति, किन्तु तत्त्वबोधिनी व्याख्याकर्ता लिखति, आध्यानार्थकस्यैव स्मरतेः न चिन्तार्थकस्य, स्मारयत्येनं वनगुल्म इत्यादौ। इति भाष्ये एव प्रयुक्तत्वात् स्मारयतेः प्रयोगे द्वितीया भवति। अतः मां स्मारयतु इति शुद्धमेव। अत्र अस्माभिः अवगन्तव्यमस्ति, स्मृ धातु द्वयमस्ति, एकः आध्यानार्थकः, आध्यानं नाम उत्कण्ठापूर्वकं स्मरणम्, अपरः चिन्तार्थकः। तत्र आध्यानार्थकस्य स्मृ धातोः प्रयोगे अण्यन्तकर्तुः तृतीया, स्मारयति देवदत्तेन इति। चिन्तार्थकस्य स्मृ धातोः प्रयोगे अण्यन्तकर्तुः द्वितीया, अतः कर्मसंज्ञा अत्र अस्ति। देवदत्तः प्रियां स्मरति, अत्र आध्यानार्थकता अस्ति, उत्कण्ठापूर्वकं स्मरणम् अत्र अस्ति। यज्ञदत्तः देवदत्तेन प्रियां स्मारयति इति देवदत्तात् तृतीया भवति। रामः विषयं स्मरति इति वाक्यं, तत्र आध्यानं नास्ति, स्मरणमात्रमस्ति। अतः पिता रामं विषयं स्मारयति इति द्वितीया एव भवति। अतः मां स्मारयतु इति प्रयोगः न दोषाय। तेन ग्रामे कानिचन दिनानि उषितानि। उषितानि इति बहुवचनप्रयोगः असाधुः। उषितम् इति एकवचनप्रयोगः स्यात्। वसधातुः अकर्मकः, अतः तस्य क्तप्रत्ययः भवति भावार्थे। भावार्थे क्तप्रत्यये कृते एकवचनं नपुंसकत्वं च भवति, बहुवचनस्य प्रसक्तिः नास्ति, अतः तेन उषितम् इति प्रयोगः एव शुद्धः। कानिचन दिनानि इति बहुवचनमस्ति खलु, अतः उषितानि इति बहुवचनान्तम् इति भ्रमः मास्तु। कालवाचिनः द्वितीयान्तपदस्य क्रियापदस्य वचनसम्बन्धः नास्ति, अतः तेन ग्रामे कानिचन दिनानि उषितम् इति एकवचनप्रयोगः एव कर्तव्यः। यदि सन्देहः स्यात् तर्हि मां प्रष्टव्यमासीत् इति अस्माभिः बहुधा दोषयुक्तः प्रयोगः क्रियते। मां प्रष्टव्यमासीत् इति वाक्यरचना दोषयुक्ता। अहं प्रष्टव्यः आसम् इति उचितः प्रयोगः। दीप्सार्थकः प्रच्छधातुः अकर्मकः, तस्मात् तव्यत्प्रत्ययः भवति प्रष्टव्य प्रष्टव्यम् इति रूपम्। सः प्रच्छधातुः कर्म अभिधत्ते, अतः कर्मणः तव्यता अभिधानात् कर्मणः प्रथमाविभक्तिः स्यात्। अस्मच्छब्दस्य प्रथमा एकवचनान्तं रूपम् अहम् इति, तस्य पुंस्त्वात् प्रष्टव्यशब्दस्यापि पुंस्त्वम्। यदि स्त्री वक्त्री स्यात् प्रष्टव्या इति रूपम्। अस्मच्छब्दप्रयोगे उत्तमपुरुषता भवति, अतः अहं प्रष्टव्यः आसम् इति वाक्यं प्रयोक्तव्यम्। प्रादेशिकभाषा प्रभावस्य कारणतः केचन साधुत्वासाधुत्वम् अविचिन्त्य प्रयोगं कुर्वन्ति, अतः अहं प्रष्टव्यः आसम् इत्येव वाक्यं शुद्धम्। इन्द्रः वरम् अनुगृह्णाति, वरम् अनुगृह्णाति इति दोषाय वरेण अनुगृह्णाति इति शुद्धं रूपम्। भक्तः प्रार्थयते, इन्द्रः भक्तम् अनुगृह्णाति। अनुग्रहक्रियायाः कर्म भक्तः न तु वरः। ग्रहधातोः द्विकर्मकत्वं नास्ति, अतः वरस्य न कर्मत्वम् अपि तु करणत्वम्। करणे तृतीया भवति। अतः वरेण अनुगृह्णाति इति प्रयोक्तव्यम्। एतानि वाक्यानि संस्कृतभाषायाम् अनुवदत। इति दोषः संस्कृतभाषया अनुवदत इति प्रयोक्तव्यम्। अनुवादकार्ये भाषायाः करणत्वं न तु अधिकरणत्वम्। अतः संस्कृतभाषया अनुवदत इति वाक्यरचना एव साध्वी। लोकयाने विद्यालयं गच्छामि, त्रिचक्रिकायां वा गच्छामि इति असाधुः प्रयोगः। लोकयानेन त्रिचक्रिकया इति तृतीयान्तं पदं प्रयोक्तव्यम्। मह्यं महती शिरोवेदना, अत्र कश्चन दोषः अस्ति, प्रयोक्तव्यमिति नास्ति। मम महती शिरोवेदना इति प्रयोक्तव्यम्। शिरोवेदना मत्सम्बन्धिनी, अतः संप्रदानस्य निमित्तस्य वा न कोऽपि अवसरः। अतः चतुर्थी न भवति, मम शिरोवेदना इत्येव प्रयोक्तव्यम्। मम इति षष्ठ्यन्तं पदं सम्बन्धं द्योतयति। एवमेव मम दुःखं, मम सुखं, मम सन्तोषः इत्यादयः प्रयोगाः। शिरोवेदना मां बाधते इति भङ्ग्यन्तरेण अपि वाक्यस्य आशयः प्रकटयितुं शक्यः। एतत् चलनचित्रं मह्यं नितराम रोचते, नितराम प्रियम्। मह्यं प्रियम् इति प्रयोगः न शुद्धः। मम प्रियम् इति प्रयोक्तव्यम्। प्रियशब्दः क प्रत्ययान्तः। इगुपतज्ञा प्रीकिरकः इति सूत्रेण क प्रत्ययः स्वार्थे। क प्रत्ययः कृत् प्रत्ययः, अतः कर्तृकर्मणोः कृति इति सूत्रेण षष्ठी भवति। चतुर्थ्याः कुत्रापि अवसरः नास्ति। मम मरणस्य भीतिः सर्वथा नास्ति। मरणात् भीतिः इति प्रयोगः उचितः। भीत्रार्थानां भयहेतुः इति सूत्रेण भयहेतोः अपादानं विहितम्। अतः मरणम् अत्र भयहेतुः, अतः मरणशब्दात् पञ्चमी स्यात्। अतः मरणात् भीतिः इति प्रयोगः। मरणसम्बन्धिनी भीतिः इति व्याख्यानम् अगतिगत्या करणीयम् स्यात्। अतः मरणात् भीतिः इति प्रयोगः उचितः। सप्ताहत्रयात् पूर्वं प्रवृत्तः प्रशिक्षणवर्गः अद्य समाप्यते। सप्ताहत्रयं प्रवृत्तः इति प्रयोक्तव्यम्। वर्गः अतीते सप्ताहत्रये प्रतिदिनम् आसीदेव। अत्र सप्ताहत्रयशब्दस्य कालाध्वनोः अत्यन्तसंयोगे इति सूत्रेण द्वितीया। अतः सप्ताहत्रयं प्रवृत्तः इति प्रयोगः कर्तव्यः। दशवादनात् अनन्तरं सः गृहे न भवति। दशवादनात् अनन्तरं इति प्रयोगः न दोषाय। अनन्तरशब्दप्रयोगे प्राचीनैः पञ्चमी बहुधा प्रयुक्ता एव। पुराणपत्रापकात् अनन्तरम् इति कालिदासप्रयोगः रघुवंशे। अथातो धर्मजिज्ञासा वेदाध्ययनस्य अनन्तरम् इति आचार्याः। नीलादनन्तरश्चैत्रः इति महाभारते भीष्मपर्वणि। लोकोऽयमथ शब्दो वृत्तादनन्तरस्य प्रक्रियार्थे दृष्टः इति शाबरभाष्ये। अतः दशवादनादनन्तरम् इति प्रयोगः न दोषाय। पितुः उत्थानस्य अनन्तरं पुत्रः उत्तिष्ठति। उत्थानस्य अनन्तरं इति प्रयोगः अपि न दोषाय। अनंतर शब्दस्य प्रयोगे षष्ठी प्रयुज्यते इति उक्तम्। संबंध मात्रे षष्ठी भाष्येपि तस्य अनंतरम् इति प्रयोगः दृश्यते। सुखस्यानन्तरं दुःखं, दुःखस्यानन्तरं सुखम् इति महाभारतेपि सन्ति पर्वणि अस्ति। सर्गशेषप्रणयनात् विश्वयोरेन योनेः अनन्तरम् इति कुमारसंभवे। दुर्जनं प्रथमं वन्दे, सज्जनं तदनन्तरम् इति प्रयोगदर्शनात् समासोऽपि भवति। अतः अनन्तरशब्दप्रयोगे द्विधा गतिः, तस्मात् अनन्तरं, तस्य अनन्तरं, तदनन्तरम् इति। सः माम् मूर्खमिति भावयति। मूर्खमिति इति प्रयोगः असाधुः। मूर्खः इति इति प्रयोक्तव्यम्। इति इति कश्चन निपातः। सः कर्म अभिधत्ते। एवम् निपातेन कर्मणः अभिधानात् मूर्खशब्दात् प्रथमा। अत्र वामनस्य उक्तिः स्मरणीया, निपातेन अभीतेऽपि कर्मणि न कर्मविभक्तिः इति। अतः अन्यः प्रयोगोऽपि अस्ति, क्रमादमुं नारद इत्यबोधितः इति ऋषभालवधे। अस्य वाक्यमपि अस्माभिः स्मरणीयम्। तं पंडितं भावयन्ति सः पंडितः इति भावयन्ति ते। तं पंडितः इति भावयन्ति ते। अत्र त्रिविधानि अपि वाक्यानि साधूनि एव। प्रथमे वाक्ये तच्छब्द पण्डितशब्दाभ्यां परा द्वितीया इति शब्दः नास्ति। द्वितीये वाक्ये तच्छब्द पण्डितशब्दाभ्यां परा प्रथम इति शब्दः प्रयुक्तः। तृतीये तच्छब्दात् द्वितीया, पण्डितशब्दात् प्रथम इति शब्दः प्रयुक्तः। द्वितीये वाक्ये इति शब्देन सः पण्डितः इति एतावान् भागः परामृष्टः, अतः प्रथम। तृतीये वाक्ये पण्डितमात्रं सङ्गृहीतम् इति शब्देन, अतः पण्डितशब्दात् प्रथम। तत्शब्दात् दीया एव। यः मृतः इति विभावितः सः जीवति। विभावितम् इति प्रयोक्तव्यम्। भावितम् इत्यत्र कर्मणि तप्रत्ययः। तथापि कर्मभूतस्य इति पदस्य अव्ययत्वात् भावितपदस्य औत्सर्गिकम् एकवचनम् नपुंसकत्वम् च। प्रयोक्त्र मृतशब्दस्य भावितशब्दस्य च सम्बन्धम् कल्पयत पुंस्तम् प्रयुक्तम्, किन्तु तयोः विशेषणविशेष्यभावसम्बन्धः नास्ति। तथा भावितशब्दस्य नपुंसकत्वमेव। सः मृतः इति विभावितम् इति वक्तव्यम्। अन्यानि कतिचन अशुद्धानि वाक्यानि सेवा करणीया इति तेन उक्ता, अत्रापि भ्रमवशात् उक्ता इति प्रयुक्तम्। सेवा करणीया इति उक्तम्। पाठः करणीयः इति स्मृतः, पाठः करणीयः इति तेन स्मृतम्। वृक्षः कर्तनीयः इति तेन चिन्तितः, वृक्षः कर्तनीयः इति तेन चिन्तितम्। एतानि शुद्धानि वाक्यानि अस्माभिः ज्ञातव्यानि। छात्रान् अध्यापकान् इत्यादीन् आह्वय। छात्राः अध्यापकाः इत्यादीन् आह्वय इति प्रयोक्तव्यम्। इत्यादिशब्देन ये गृह्यन्ते ते प्रथमाविभक्त्यन्तेन बोध्याः भवेयुः, न द्वितीयाद्यन्तेन। अपेक्षिता विभक्तिः तु इत्यादि शब्दोत्तरं योजनीय। अत्र कानिचन वाक्यानि वयं द्रष्टुं शक्नुमः। रामं कृष्णम् इत्यादीनाह्वय इति अशुद्धम्। रामः कृष्णः इत्यादीन् आह्वय। इति शुद्धम्। रामेण कृष्णेन इत्यादिभिः कृतम्। रामः कृष्णः इत्यादिभिः कृतम् इति शुद्धम्। रामाय कृष्णाय इत्यादिभ्यः देहि इति अशुद्धम्। रामः कृष्णः इत्यादिभ्यः देहि इति शुद्धम्। रामात् कृष्णात् इत्यादिभ्यः आनय इति अशुद्धम्। रामः कृष्णः इत्यादिभ्यः आनय इति शुद्धम्। तत् रामस्य कृष्णस्य इत्यादीनां गृहं गृहे अस्ति इति अशुद्धम्। तत् रामः कृष्णः इत्यादीनां गृहे अस्ति इति शुद्धम्। रामे कृष्णे इत्यादिषु मम स्नेहः इति अशुद्धम्। रामः कृष्णः इत्यादिषु मम स्नेहः इति शुद्धम्। एतेषु वाक्येषु इत्यादि शब्दं विहाय प्रभृतिशब्दः प्रयुक्तश्चेदपि समानः एव अर्थः। रामकृष्णप्रभृतीन् रामकृष्णप्रभृतिभिः इति प्रयोगः कर्तुं शक्यते। आरक्षकाः चोरस्य हस्ते निगडं बद्धवन्तः। चोरस्य हस्तं निगडेन बद्धवन्तः इति वाक्यप्रयोगः उचितः। आरक्षकाः बन्धनकर्तारः। चोरस्य हस्तः कर्म, अतः कर्मणः द्वितीया भवति। निगडः अत्र साधनम्, साधनात् तृतीया भवति। अतः हस्तं निगडेन बद्धवन्तः इति वाक्यं साधु। यदि चोरस्यैव कर्मत्वम् इष्यते तदा आरक्षकाः चोरं हस्ते निकटेन बद्धवन्तः इति प्रयोगः स्यात्। बन्धनविषयीभूतस्य अङ्गस्य सप्तमी प्रयुज्यते शिष्टैः। निकटं बद्धवन्तः इति प्रयोगः न युक्तः। निगडस्य कर्मत्वं तु वक्तुः अभिप्रेतं नास्ति। वटुः शिखां बध्नाति। अयं प्रयोगः साधुः एव। शिथिलाः केशाः तेन बध्यन्ते। अत्र बन्धनं नाम आरचनम्। पूर्वतनवाक्ये अपि बध्नातिः एव प्रयुक्तः, तथापि तत्र तस्य अर्थः यः उक्तः अत्र सः अर्थः नास्ति। अतः वटुः शिखां बध्नाति इति प्रयोगः शुद्धः एव। कर्म सः मित्रस्य हस्ते रक्षां बध्नाति। अयमपि प्रयोगः साधु एव, साधुः एव। बन्धनक्रियायां रक्षायाः साधनत्वं स्यात् खलु इति भ्रमः मास्तु। अत्र बध्नातेः धारणमर्थः, धारणक्रियायां रक्षायाः कर्मत्वम् अस्ति एव। कर्मकरः ग्रन्थिं बध्नाति। अयमपि प्रयोगः साधु एव साधुः एव ग्रन्थिं बध्नाति इति प्रयोगः बहुधा श्रूयते लोके बध्नातेः रचनमर्थः रचनक्रियाया ग्रन्थेः कर्मत्वम् बालः स्तम्भे रज्जुं बध्नाति अयमपि प्रयोगः साधुः यद्यपि अत्र बन्धधातोः एव प्रयोगः अस्ति रज्जोः प्रयोगः अपि अस्ति तथापि रज्ज्वाः न तृतीया तत्र कारणं तु धातोः अर्थः बन्धनं नाम एकदेशे योजनम् तस्यां क्रियायां रज्जोः एव कर्मत्वम् अतः बन्धधातोः प्रयोगाः विविधेषु अर्थेषु सम्भवन्ति अर्थं विविच्य कस्य शब्दस्य कर्मत्वं कस्य साधनत्वम् इत्यादयः अंशाः निर्णेतव्याः बालः स्तम्भे रज्जुं बध्नाति इति वाक्यं प्रपुरतः इदानीं व्याख्यातम् राजा हस्ते खड्गं गृहीतवान् हस्ते इति सप्तमी स्थाने हस्तेन इति प्रयोक्तव्यम् अत्र ग्रहणक्रिया उच्यते ग्रहणकर्मीभूतः खड्गः अतः तस्मात् द्वितीया कर्तृकरणयोः तृतीया इति सूत्रेण अत्र तृतीया भवति करणवाचकस्य अधिकरणत्वं कदापि न भवति अतः सप्तमी स्थाने ग्रहणान्तरं खड्गः हस्ते इति सत्यं किन्तु खड्गस्य हस्ते स्थितिः उच्यते सा सप्तमी स्यात् अत्र ग्रहणक्रिया कथनविषयः तदा हस्तस्य करणत्वम् एव तस्मात् तृतीया एव न तु सप्तमी अनुजः तथा पिता पित्रा सह सहगतवान्। अत्र अनुजेन पित्रा सह पुत्रा च सह सहगतवान् इति वक्तव्यम्। सह इति प्रधानकर्ता, अप्रधानकर्ता पिता, अतः सहयुक्ते अप्रधाने इति सूत्रेण तृतीया विभक्तिः भवति। अनुजः अपि अप्रधानकर्ता, अतः तस्यापि तृतीया विभक्तिः भवति। चकारः तु उभयोः समुच्चयबोधनाय प्रयुक्तः। अत्र अव्यवस्थायाः लेशमात्रमपि अवकाशः नास्ति। लेशमात्रेण इति प्रयोक्तव्यम्। लेशमात्रमिति प्रथमान्तं पदम्, अवकाशः इति प्रथमान्तम्। तयोः विशेषणविशेष्यभावः वक्तव्यः भवेत्, किन्तु स च तयोः न घटते। अतः लेशमात्रम् इत्यस्य नास्ति इत्यत्र अन्वयः। लेशमात्रपदात् तृतीया, अतः लेशमात्रेण अपि अवकाशः नास्ति इति वाक्यस्य आनुपूर्वी भवेत्। पुरुषाणां कृते अत्र प्रवेशः निषिद्धः। एतस्मिन् वाक्ये कृते इति पदं परिहरणीयम्। निषिद्धः तु प्रवेशः। सः केषाम् इति जिज्ञासायां पुरुषाणाम् इति उत्तरम्। अतः षष्ट्यन्तस्य पुरुषाणामित्यस्य प्रवेशः इत्यत्र अन्वयः। तयोः मध्ये कृते इत्यस्य निवेशस्य आवश्यकता नास्ति। कृते इत्यस्य निमित्तम् इति अर्थः। अत्र निमित्तम् इति अर्थः नास्ति। अतः पुरुषाणां प्रवेशः निषिद्धः इति वाक्यमेव शुद्धं भवति। सः सुमहत् उपकारं कृतवान्। महत् इति रूपम् अत्र असाधु, सुमहान्तम् इति प्रयोक्तव्यम्। उपकारः पुंसि, तद्विशेषणं महच्छब्दः अपि पुल्लिङ्गे एव। उपकारशब्दस्य द्वितीयान्तत्वात् महच्छब्दः अपि द्वितीयांतः एव सदा महांतम् इति रूपम्। उपकारशब्दः नपुंसके इति मत्वा नपुंसकलिङ्गविशिष्टं विशेषणं कदाचित् प्रयुज्येत, स च दोषः। एषः महान् सन्तोषस्य विषयः, अत्रापि महतः इति प्रयोक्तव्यम्। सन्तोषः अत्र षष्ठ्यन्तत्वेन प्रयुक्तः। तद्विशेषणं महच्छब्दः अपि षष्ठ्यन्तः एव स्यात्। महतः इति प्रयोगः साधुः। प्रथमान्तस्य महान् इत्यस्य विषये अन्वयः वक्तुं शक्यः, तदा महान् विषयः इति वाक्यविन्यासः स्यात्। किन्तु वक्तुः आशयस्तु सन्तोषः इति, अतः सन्तोषे तस्य अन्वयं वक्तुं महतः सन्तोषस्य विषयः इति प्रयोक्तव्यम्। भूषणभ्रात अत्र आगच्छ इति बहुधा प्रयुज्यते प्रादेशिकभाषा प्रभावकारणतः। भूषणभ्रातः इति प्रयोक्तव्यम्। भूषणः इति भ्राता, भूषणभ्राता, तस्य सम्बुध्यन्तं रूपं भूषणभ्रातः इति। ऋकारान्तस्य सम्बोधने विसर्गस्य श्रवणम्। भ्रातः, मातः, पितः इत्यादीनि उदाहरणानि। वस्तुतः भ्रातः भूषण इति व्यस्तप्रयोगः एव शोभते। एतावता वयं प्रायः पञ्चचत्वारिंशत् विभक्तिप्रत्ययान्तरूपाणि दृष्टवन्तः। एवमेव अग्रेपि बहवः शब्दाः द्रष्टव्याः सन्ति। अग्रिमकक्षायाम् अवशिष्टानि पश्यामः। धन्यवादः।